धर्मा समन्दात् त्रिविधम् यावदस्तयोर्जुष्टिम् मातरिश्वा जगाम दिवस्वज्योतिषाणामेषन् विदुर्देवाः सहसा मानमर्कम् इस्रो देष्टाय निर्वेतीरुपाः सते दीर्घश्रुतो विहिजानन्ति वह्नायः तासाम् निजिक्यः कवयो निदानम् परेषु यागुह्येषु व्रतेषु चतुष्कपर्दायुपतिः सुपेशाः घृतप्रतीकापयुना निवस्ते अस्याम् सुपर्णानुषनानुषेदधुर्यत्र देवादधिरेभागधेयम् एकः स्वपर्णः स मुद्रमावीवेश स इदम् विश्वम् भुवनम् वितष्टे समम् वाके नमनसा पश्यमन्दीतस्तम् मातारेभि सपूरेभि मातरम् सुपर्णम् विप्राः कवयोवचोऽभिरेकम् सन्तम् बहुधा कल्पयन्ति छन्दांसि जनधतो अध्वरेषु गृहान् सोमस्य विमते द्वादश षट्यंसां चतुरः कल्पयन्तश्चन्दांसि जदधत आद्वादशम् यज्ञम् विमाय कवयो मनीषरिक्सामाभ्याम् प्ररथम् वर्तयन्ति चतुर्दशान्येम हिमानो अस्यतम् धीरा वाचा प्रणायन्ति सप्त आप्नानम् तीर्थङ्क इह प्रवो झज्जेन पथा प्रपिबन्ते सुतस्य सहस्रधा पञ्चदशान्युक्थाया भद्या वा पृथिवीतावधित्तत् सहस्रधाम हिमानः सहस्रम् यावद्ब्रह्मविष्टितम् तावदीवाग् प्रच्छन्दसाम् योगमावेदधीरः कोदिन्याम् प्रतिवाचम् पपाद मृत्युजामष्टमम् सूरमाहुर्हरीन्द्रस्य निचीकायकस्वीत् भूम्या अन्तम् पर्येके चलन्तिरथस्य धूर्ययुक्तासोऽस्तुः श्रमस्य दायम् विभजन्तेभ्यो यदायमो भवति हर्म्ये हितः